सविनिः स्वसन् मुनिवरः पश्चात्तापेन दुःखितः भीताम् अप्सरसं दृष्ट्वा वेपत्नीं प्राञ्जलिं स्थितां मेनकां मधुरैः वाक्यैः विसृज्य कुसिकात्मजः उत्तरं पर्वतं राम विश्वामित्रो जगामः।